ओम नमो भगवते वासुदेवाय। अथ त्रयोदशोऽध्यायः। सूत उवाच, यं ब्रह्मा वरुणेन्द्र रुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ध्यानावस्थित तद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरा सुरगणा देवाय तस्मै नमः। पृष्ठे भ्राम्यद मन्दमन्दरगिरिग् ग्रावाग्रकण्डूयनान् निद्रालोकमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः यत्संस्कारकलानुवर्तनवशात् वेलानिभेनाम्भताम् यातायासमतन्द्रितम् जलनिधेर्नाद्यापि विश्राम्यति। पुराणसङ्ख्यासम्भूतिमस्य वाच्यप्रयोजने दानम् दानस्य माहात्म्यम् पाठादेश्च निबोधत। ब्राह्मम् दशसहस्राणि, पद्मम् पञ्चोनषष्टि च, श्रीवैष्णवम् त्रयोविंशच्चतुर्विंशतिशैवकम्, दशाष्टौ श्रीभागवतम् नारदम् पञ्चविंशतिः, मार्कण्डम् नववाहन्नम् च दश पञ्चचतुःशतम्, चतुर्दश भविष्यम् स्यात् तथा पञ्चशतानि च, दशाष्टौ ब्रह्मवैवर्तम् लिङ्गमेकादशैव तु, चतुर्विंशतिवाराः मेकाशीतिसहस्रकम्, स्कान्दम् शतम् तथा चैकम् वामनम् दशकीर्तितम्, कौर्मम् सप्तदशाख्यातम्, मात्स्यम् तत्तु चतुर्दश, एकोनविंशत् सौपर्णम् ब्रह्माण्डम् द्वादशैव तु। एवम् पुराणसन्दोहश्चतुर्लक्ष उदाहरितः, तत्राष्टादशसहस्रम् श्रीभागवतमिष्यते। इदम् भगवता पूर्वम् ब्रह्मणेनाभिपङ्कजे स्थिताय भवभीताय कारुण्यात् सम्प्रकाशितम्। आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् हरिलीलाकथा व्रातामृतानन्दितसत्सुरम् सर्ववेदान्तसारम् यत् ब्रह्मात्मैकत्वलक्षणम् वस्त्वद्वितीयम् तन्निष्ठम् कैवल्यैकप्रयोजनम् प्रौष्टपद्याम् पौर्णमास्याम् हेमसिंहसमन्वितम् ददाति यो भागवतम् स याति परमाम् गतिम्। राजन्ते तावदन्यानि पुराणानि शताङ्गणे यावन्न दृश्यते साक्षात् श्रीमद्भागवतम् परम्। सर्ववेदान्तसारम् हि श्रीभागवतमिष्यते, तद्रसामृततृप्तस्य नान्यत्र स्याद् रतिः क्वचित्। निम्नगानाम् यथा गङ्गादेवानामच्युतो यथा, वैष्णवानाम् यथा शम्भुः, पुराणानामिदम् तथा, क्षेत्राणाम् चैव सर्वेषाम् यथा काशीयनुत्तमा, तथा पुराणव्रातानाम् श्रीमद्भागवतम् द्विजाः। श्रीमद्भागवतम् पुराणममलम् यद्वैष्णवानाम् प्रियम्, यस्मिन् पारमहंस्यमेकममलम् ज्ञानम् परम् गीयते, तत्र ज्ञानविरागभक्तिसहितम् नैष्कर्म्यमाविष्कृतम्। तच्छृण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः, कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा। तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा, योगीन्द्राय तदात्मनाथ भगवत् राताय कारुण्यत। तच्छुद्धम् विमलम् विशोकममृतम् सत्यम् परम् धीमहि, कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा। तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा, योगीन्द्राय तदात्मनाथ भगवत् राताय कारुणीयत। तच्छुद्धम् विमलम् विशोकममृतम् सत्यम् परम् धीमहि। नमस्तस्मै भगवते वासुदेवाय साक्षिणे, य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे संसार सर्पदष्टं यो विष्णुरात्ममुमुचत् भवे भवे यथा भक्तिः पादयोस्तव जायते तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो नाम संकीर्तनं यस्य सर्वपाप प्रणाशनम् प्रणामो दुःख समनस्तं नमामि हरिं परम् भवे भवे यथा भक्तिः पादयोस्तव जायते तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो नाम संकीर्तनं यस्य सर्वपाप प्रणाशनम् प्रणामो दुःख समनस्तं नमामि हरिं परम् प्रणामो दुःख समनस्तं नमामि हरिं परम् ओम स्वस्ति श्रीमद्भागवते महापुराणे वैयासिक्याम् अष्टादशसाहस्र्याम् पारमहंस्याम् संहितायाम् द्वादशस्कन्धे त्रयोदशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी सम्पूर्णोऽयम् ग्रन्थः त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये तेन त्वदङ्घ्रिकमले रतिं मे यच्छ शाश्वतीम् यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम कृष्णाय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविन्दाय नमो नमः श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव 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 श्रीमद्भागवत महापुराण की जय श्री राधा कृष्ण भगवान की जय श्री सद्गुरुदेव भगवान की जय।